हिन्वन्ति दूरमुस्रजस्वसारोजामयस्पतिम् महामिन्दुम् महीयुवाः पवमानरुचारुचा देवो देवेभ्यस्परि विश्वावसोऽन्यावीश आपवमानदुष्टुतिम् वृष्टिम् देवेभ्यो दुवाः निषेपावस्वसंयतम् ृषाष्यसि भानुनाद्युमन्तम् त्वाहवामहे अपमानस्वाध्याः आपवस्वसुवीर्यम् मन्दमानस्वायुध युहोऽश्विन्दवागहि यदद्भिः परिधिच्छसे विद्यमानो गभस्त्योः नृणासधस्तमश्रुषे सोमायव्यस्वत्पवनानाय गायत महे सहस्रचक्षसे यस्य वर्णम् मधुश्रुतम् हरिम् हिन्वन्त्यद्रिभिः इन्दुमिन्द्राय पीतये तस्य ते वाजिनो वयम् विश्वधनानि जिज्ञुषाः सखि त्वमावृणीमहे विषावमस्वधारयामरत्वा तेजवत्सरः विश्वादधा नवोजसा हन्त्वा धत्तारमोऽन्यो ओपवमानस्वदृशम् इन्द्रेवाजेषु वाजिनम् अयाचित्ता विपानया हरिप्पवस्वधारया इदम् वाजेषु चोदय आना इन्दो महीमिषम् पवस्व विश्वदर्शतः अस्मभ्यम् सोमगा द्विविद् आ कलसा अनुषतेन्दोधाराभिरोजसा एन्द्रस्य पीतये विश यस्य देवध्यम् रसम् तीव्रम् दुहञ्जद्रीभिः सपवस्वाभिमाधिहा राजा मेधाभिनीयते पवमानो मनावधि अन्तरिक्षेण जातवे आन इन्दो सदग्निनम् गवाम् पोषम् स्वस्यम् महाभगत्तिमूतये आनः सोमसहोजुवो रूपन्नवर्चसे भर सुष्वानो देववीतये अर्षा सोमद्युमत्तमोभिद्रोणा निरोरूपत् सीदम् छेनो न यो निमा अप्सा इन्द्राय वायभेवरूणाय मरुध्याः सोमो अर्षति विष्णवे इषम् तोकाय नो दधदस्मभ्यम् सोमविश्वताः आपवस्वसहस्रिणम् ये सोमासः परावधि ये अर्भावति सुन्दिरे ये वादशर्जनावधि य आधीकेषु कृत्वा सुये मध्ये पस्त्यानाम् ये वाजनेषु पञ्चसु येना वृष्ट्यम् दिवस्परिपवम् तामासुवीर्यम् सुबाणा देवास इन्दवः भवते हर्यतो हरिर्गृणानो जमदग्निना हिन्वानो गोरधित्वसि शुक्रासो वयोजुगो हिन्वानासो न सप्तजः श्रीनाना अप्सुरञ्जत हन्वासुते श्वाभुवो हिन्विले देवतादये सपावस्वानया रुचा आदे दक्षम् वयो भुवम् वह्नी मद्यावृणीमहे पान्तमापूरुस्पृहम् आमन्द्रमावरेण्यमाविप्रमावनीषिणम् पान्तमापूरुस्पृहम् आरयिमासु चेतु नवासु क्रतो तनूष्वा पान्तमापूरुस्पृहम्